अथ चतुश्लोकी।
सर्वदा सर्वभावेन भजनीयो व्रजाधिपः स्वस्यायमेव धर्मो हि नान्य क्वापि कदाचन। एवं सदा स्म कर्तव्यं स्वयमेव करिष्यति प्रभुः सर्वसमर्थो हि ततो निश्चिन्ततां व्रजेत्। यदि श्रीगोकुलाधीशो धृतः सर्वात्मनारुदि ततः किं परं ब्रूहि लौकिकैर्वैदिकैरपि। अतः सर्वात्मना शश्वद् गोकुलेश्वरपादयोः स्मरणं भजनं चापि न त्याज्यमिति मे मतिः।